इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्यवार्ताः लोकसभानिर्वाचनस्य तृतीयचरणाय प्रचाराभियानानि सजवं प्रवर्तन्ते उत्तराखण्डे वन अग्नि निवारणार्थं प्रयत्नाः प्रचलन्ति वनाग्निकाण्डे संलिप्ताः अष्टौ जनाः निगडिताः छत्तीसगढ़स्य बेमेतारामण्डले राजमार्ग दुर्घटनायाम् अष्टौ जनाः मृताः जम्मूकश्मीर उधमपुरमण्डले आतंकवादीनां समूहद्वयस्य अन्वेषणं निष्प्रभावीकरणञ्च कर्तुम् अन्वेषणकार्यक्रमः प्रवर्तते गतसायं प्रारभ्य अविरामवृष्टेः कारणात् कश्मीरस्य नैकभागेषु विनाशः सञ्जायते अपि च आईपीएल क्रिकेट क्रीडा प्रतियोगितायां कोलकातायाम् अद्य कोलकाता नाइट राइडर्स दलं दिल्ली कैपिटल्स दलं विरुध्य क्रीडिष्यति अथ वार्ताः विस्तरेण निर्वाचनदिवसानां सान्निकट्यम् अनुभवन्तः विभिन्नदलानां वरिष्ठनेतारः एकस्यापि निर्वाचनक्षेत्रस्य अस्पृष्टभागं त्यक्तुं नेच्छन्तः सजवं प्रचाराभियाने संलग्नाः अभवन् भाजपेति दलस्य वरिष्ठनेता देशस्य प्रधानमन्त्री च श्रीनरेन्द्रमोदी प्रचाराभियाने उक्तवान् यत् देशं सप्तचत्वारिंशदुत्तर द्विसहस्रतमवर्षं यावत् विकसितं कर्तुम् अहर्निशं किं करणीयमिति अस्मत् योजना निर्धारिता अस्ति सः बेंगलुरुनगरे प्रचाररतः आसीत् तेन कांग्रेसदलस्य आलोचनां कुर्वन् प्रोक्तं यत् कांग्रेसदलं तुष्टीकरणस्य राजनीतिं करोति कांग्रेसदलं बेंगलुरुनगरं सूचना प्रौद्योगिकी केन्द्रतः जलवाहन केन्द्ररूपेण परिवर्तितुमिच्छति यतोहि अत्र पेयजलस्य समस्या वरीवर्धते श्रीमोदी जनान् आहूतवान् यत् ते सामाजिक प्रसारतन्त्रस्य सूचनासु विनैव बुद्धिप्रयोगेन विश्वासं मा कुर्युरिति कांग्रेसदलनेत्र्या प्रियंका गांधी वाड्रा इत्यनयापि दलस्य गुलबर्गाक्षेत्रस्य प्रत्याशिनः पक्षे प्रचारार्थं सेडम् इत्यत्र जनसभा सम्बोधिता उत्तराखण्डे वनाग्निं शामयितुम् एनडीआरएफ इत्यस्य कर्मचारिभिः सह वनविभागस्य प्रयत्नाः प्रचलन्ति येन गढ़वाल कुमाऊं विभागयोः अग्निप्रकोपस्य नियन्त्रणे महती प्रगतिः सञ्जातास्ति अग्निशामक प्रयासेषु स्थानीय समुदायाः अपि स्वसमर्थनं ददति नैनीतालमण्डलस्य महेशखान क्षेत्रे एव अग्निघटनानां नियन्त्रणार्थं त्रिंशत् एनडीआरएफ कर्मचारिभिः सहिताः त्रिशतम् अग्निनिरीक्षकाः नियोजिताः सन्ति मुख्यमंत्री पुष्कर सिंह धामी इत्यनेन आश्वासनं दत्तं यत् वनानां अग्निप्रकोपानां वर्धमान घटनानां निवारणाय सर्वे सम्भाव्य परिहाराः क्रियन्ते छत्तीसगढ़े बेमेतारामण्डले राजमार्ग दुर्घटनायां अष्ट जनाः मृताः एकविंशतिः च जनाः व्रणिताः आरक्षाधिकारिणा मते प्रायः त्रिंशत् जनाः पारिवारिक कार्यक्रमे भागं गृहीत्वा वाहनेन स्वग्रामं प्रत्यागच्छन्ति स्म तेषां यानं कठिया ग्रामस्य समीपे अन्येन वाहनेन सह दुर्घटनाग्रस्तं जातम् घटनायाम् अष्ट जनाः स्थले एव मृताः मृतेषु पञ्च महिलाः त्रयः बालकाः च सन्ति गभीररूपेण व्रणिताः चत्वार जनाः एम्स रायपुरं प्रति प्रेषिताः सन्ति अन्य व्रणितानां बेमेतारा जनपद चिकित्सालये चिकित्सा क्रियते जम्मूकश्मीरस्य ऊधमपुरमण्डलस्य वसन्तगढ़स्य सघनवनेषु आतंकवादिनां समूहद्वयस्य निष्प्रभावीकरणाय अन्वेषणार्थं च विशालः अन्वेषणकार्यक्रमः अद्य द्वितीयदिने प्रवेशं कृतवान् आकाशवाणी जम्मू संवाददाता उक्तवान् यत् रविवासरे प्रातःकाले चोचरूगाला उच्चस्थानेषु दूरस्थे पनारा ग्रामे आतंकवादिभिः सह संक्षिप्त संघर्षे ग्रामस्य रक्षारक्षकस्य मृत्युः अभवत् तदनन्तरम् आरक्षिभिः सेनया सीआरपीएफ द्वारा च मृगया आरब्धा अन्वेषणकार्यक्रमः प्रचलति पलायितैः आतंकवादिभिः सह नूतनः सम्पर्कः नास्ति संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति कश्मीरे रविवारस्य सायंकालादारभ्य अविरामवृष्टेः कारणात् अनेकभागेषु विनाशः अभवत्। श्रीनगरादिषु काश्मीरस्य अन्येषु भागेषु विगत चतुर्विंशतिहोराभिः मध्यमतः अधिकवृष्टिः अभवत्। अनेकमार्गेषु निम्नक्षेत्रेषु च जलप्रलयः सामान्यजीवनं बाधितवान् इति ज्ञातम्। गुलमर्ग, गुरेज उपत्यका, रजदान टॉप, साधना टॉप, मुगल मार्गः, जोदिला दर्रा चेत्यादिषु केषुचित् उपरितन स्थानेषु अल्पहिमपातः अपि अभवत्। नल्लाहेषु उपत्यकायाः पारं धाराषु च जलस्तरः प्रचण्ड वृष्ट्या बहुधा वर्धितः, परन्तु एतावता जलप्लावनस्य संकटं नास्ति इति अधिकारिणः अवदन्। विदेशमन्त्री डॉ एस जयशंकरः अद्य उक्तवान् यत् भारतस्य विशालक्षमता अद्यापि सम्पूर्णं विश्वं प्रति अज्ञातभूता अस्ति। दिल्ली विश्वविद्यालयस्य महाविद्यालये दक्षिणपूर्व एशिया जापानयोः च सह पूर्वोत्तरभारतस्य एकीकरणस्य विषये अन्तः क्रियाशीलसत्रं सम्बोधयन् डॉ जयशंकरः उल्लेखितवान् यत् देशेन एकीकृतविकासाय जी विंशति संघस्य आयोजनं कृतम्। सः अवदत् यत् विश्वस्य कूटनैतिकम् अवधानं प्राप्तुं सर्वकारेण एतत् सर्वाधिकं कार्यं कृतमस्ति। डॉ जयशंकरः अग्रे अपि अवदत् यत् कूटनैतिकम् अवधानं केवलं केषुचित् महानगरेषु एव न भवेत्, अपितु प्रत्येकं राज्ये एव भवितुमर्हति। सः एतदपि प्रकाशितवान् यत् देशे एकविंशतिः एतादृशानि जलविमानानि सेवायां सन्ति यानि अन्ताराष्ट्रिय जलव्यापारस्य रक्षणं कुर्वन्ति। तेनोक्तम् अनेन व्यापारव्ययः न्यूनः भवति। कांग्रेसदलस्य वरिष्ठनेता राहुलगान्धी भाजपासर्वकारस्य आलोचनां कुर्वन् उक्तवान् यत् देशे सर्वत्र महार्घता अवृत्तिः च निरन्तरं वर्धते। अद्य उत्तरगुजरातस्य पाटननगरे निर्वाचनसभां सम्बोधयन् श्रीगान्धी उक्तवान् यत् एनडीए सर्वकारेण पर्याप्तमात्रायां व्यावसायिक ऋणेषु चिततां प्रदाय कृषकैः, आदिवासिभिः, लघुश्रमिकैः सह अन्यायः कृतः अस्ति। सः अवदत् यत् देशे 1% जनाः एव 40% धनं नियन्त्रयन्ति। श्रीगान्धी अवदत् यत् कांग्रेसदलं सत्तां प्राप्य देशे प्रत्येकं समुदायस्य प्रतिनिधित्वस्य आकलनाय जाति आधारितां जनगणनां कारयिष्यति, तथा च कृषकाणां ऋणम् अऋणं करिष्यति। अपरपक्षे गुजरात भाजपा अध्यक्षः सीआर पाटिलः दलस्य प्रतिनिधीनां पक्षे प्रचारं कुर्वन् अस्ति। कांग्रेसदलेन अद्य लोकसभा निर्वाचनानां कृते कतिपय प्रत्याशिनां नामानि समुद्घोषितानि। पंजाब कांग्रेस अध्यक्षः अमरिन्द्र सिंह ब्रारः लुधियाना लोकसभा क्षेत्रतः निर्वाचनेषु प्रातिभाग्यं करिष्यति। दलनेता सुखजिन्दर सिंह रंधावा गुरदासपुरतः प्रातिभाग्यं भजिष्यति। आनंदपुर साहब लोकसभा क्षेत्रतः पंजाबस्य पूर्व मंत्री विजय इंदर सिंगला प्रतिभागितां करिष्यति। केन्द्रं रैत्विक इन्फ्लुएंजा इति संक्रमणं सूक्ष्मदृष्ट्या निरीक्षते। अमेरिकादेशस्य विभिन्नेषु राज्येषु पशुषु दुग्धेषु च एवीएन इन्फ्लुएंजा विषाणोः पत्ताङ्गीकरणस्य विषये प्रतिवेदनकारणात् देशस्य वर्तमानस्थितेः आकलनाय केन्द्रीय स्वास्थ्यमन्त्रालयेन राज्यैः केन्द्रशासितसंस्थाभिश्च सह समीक्षा सभा आयोजिता, परन्तु अधुना देशस्य कस्मिन् अपि भागे ऋतुकाले फ्लू रोगस्य असामान्यः आतंकजनकः वृद्धि न दृश्यते। ऋतुकाले इन्फ्लुएंजा विषाणुभिः उत्पद्यमानं तीव्रश्वसन संक्रमणं यद्धि विश्वस्य सर्वेषु भागेषु प्रचलति, वैश्विकरूपेण च कतिपयेषु मासेषु प्रकरणानां वृद्धिः दृश्यते। अन्ते क्रीडावार्तायाम्, आईपीएल क्रिकेट क्रीडायां कोलकातायाः ईडेन गार्डेन्स क्रीडाङ्गणे अद्य कोलकाता नाइट राइडर्स दलं दिल्ली कैपिटल्स दलं विरुद्ध्य क्रीडिष्यति। गतरात्रौ चेन्नई नगरस्य एम ए चिदम्बरम क्रीडाङ्गणे चेन्नई सुपर किंग्स दलेन सनराइजर्स हैदराबाद दलं 78 धावनांकैः पराजितम्। इति वार्ताः।